यह
स्वात्मनीदम्
निज
मायया
मायार्पितम् Look into your pages.
Vibhatam.
Kvachatat.
Tirohitam.
Avidyadrik, Saakshi,
Ubhayam, Tadikshate,
Sa Atma Mulo. Avatumam.
Parat Para.
Okay? Which one? Nijamaya Yarpi. Second word, no? Swatmanidam. Yeah, Swatmanidam. Maya Yarpitam. Any other doubt? No doubt? Avidyadrik. Which one? Yeah, not one word. Kvachatat. It's not one word. It's separate.
Third line, last word.
Ikshate. Any other doubt?
Fourth line, last word.
Paratpara.
Fourth line, second word.
Atmamulo.
Yes, Swatmanidam.
Nijamayarpitam. Now I'll combine the line, okay?
Yes, Swatmanidam Nijamayarpitam.
Kvachit Vibhatam Kvachatat Tirohitam.
Avidyadrik Saakshi Ubhayam Tadikshate.
Sa Atma Moolo Avatu Maam Parat Para.
Sa Atma Moolo Avatu Maam Parat Para.
Yasvatmanidam nijamayayarpitam.
Yasvatmanidam nijamayayarpitam. Yasvatmanidam nijamayayarpitam. Yasvatmanidam nijamayayarpitam.
Kvachit vibhatam kvachatatirohitam.
Kvachit vibhatam kvachatatirohitam. Kvachit vibhatam kvachatatirohitam.
अविद्यदृक् साक्षि उभयं तदीक्षते.
अविद्यदृक् साक्षि उभयं तदीक्षते. अविद्यदृक् साक्षि उभयं तदीक्षते. अविद्यदृक् साक्षि उभयं तदीक्षते.
सात्ममूलोऽवतु मां परात्परा.
सात्ममूलोऽवतु मां परात्परा. सात्ममूलोऽवतु मां परात्परा.
Recite the whole verse the same way you recite. Yasvatmanidam nijamayayarpitam kvachit vibhatam kvachatat tirohitam aviddadrik sakshi ubhayam tadikshate saatma mulo avatumam paratpara.
Yasvatmanidam
nijamayayarpitam
kvachit vibhatam kvachatat tirohitam अविद्यादृक् साक्षि उभयं तदीक्षते सात्ममूलो
मनीदं निजमायार्पितं क्वचित् विभातं क्वच तत्तिरोहितम् अविद्यादृक् साक्षि उभयं तदीक्षते सात्ममूलो अवतु मां परात्परा.